एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। गृहमन्त्री ओम प्रकाश आर्यालः प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते सुदृढ सुरक्षा व्यवस्था विहिता स्थिति सूचयति। निर्वाचनस्य सुरक्षायाः आचार संहितायाः क्रियान्वयनस्य च विषये पूर्व मुख्य निर्वाचनाधिकृतस्य नुवाकोटवर्तिनी कार्यालये ह्य सूचनायाः ग्रहणस्य पश्चात् संचारकर्मिभिः सह चर्चयन् भयरहिते वातावरणे निर्वाचनम् सम्पादयितुम् सुरक्षायाः सुदृढ व्यवस्थाम् विधातुम् सर्वकारः तत्परोऽस्तीति अगदत्। वर्तमान सर्वकारस्य प्रमुख दायित्वम् निर्वाचनस्य सम्पादनमस्ति इति चर्चयन् गृहमन्त्री अर्यालः मतदाने निर्भयेन सहभागिनो भवितुम् मतदातृन् अन्वरुणत्। सर्वकारेण प्रतिनिधिसभायाः आसन्न निर्वाचने ड्रोन इति श्रव्यदृश्य सामग्री चित्रग्रहणोपकरणस्य प्रयोगः निषिद्धो वर्तते। गृहमन्त्रालयस्य प्रवक्ता सहसचिवश्च आनन्द काफले आगामिन फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमाने प्रतिनिधिसभा सदस्यानाम् निर्वाचने ड्रोन इति श्रव्यदृश्य सामग्री चित्रग्रहणोपकरणस्य प्रयोगे निषेधम् कर्तुम् केन्द्रीय सुरक्षा समित्या निर्णीतमस्तीति असूचयत्। प्रवक्ता काफले सम्प्रति सामाजिक सञ्जालस्य दुरूपयोगः वर्धमानोऽस्तीत्यतः तत्कार्यम् रोद्धुम् नेपाल प्रहरिणा सञ्चाल्यमानम् अत्याधुनिकोपकरणम् समूहम् च अतिरिक्त प्रभावकारिणौ सम्पादयितुम् च निर्णीतम् वर्तते इति असूचयत्। मन्त्रालयेन सामाजिक सञ्जालानाम् प्रयोगे ध्यानम् प्रदातुम् अनुरुध्य मिथ्या भ्रमपूर्ण सूचनाम् लाञ्छनायाः आक्षेपिकाम् च सूचनाम् च न स्थापयितुम् अनुरोधम् कृत्वा च तथाविध गतिविधिषु संलग्नतायाम् दृष्टायाम् सत्याम् दण्डयिष्यन्ते इति सर्वे संसूचिताः वर्तन्ते। आगामिना फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य प्रयोजनाय नेपाल भारतयोः सीमा प्रवेशबिन्दवः अष्टाचत्वारिंशतो घण्टाभ्यः पूर्वतः पिधास्यन्ते। मोरङ जनपदस्य विराटनगरे सम्पन्नेन सशस्त्र प्रहरीबल नेपालस्य भारतीय सशस्त्र सीमा बलस्य च षोडशेन प्रहरीउप महानिरीक्षक स्तरीयेण समन्वयोपवेशेन एवं निर्णीतमस्तीति सशस्त्र प्रहरीण प्रवक्ता विष्णु प्रसाद भट्ट असूचयत्। उपवेशे सीमा सुरक्षाया सूचनाया आदान प्रदानयो तृतीय देशस्य नागरिकाणाम् अवैध प्रवेशनस्य नियन्त्रणस्य मानव विक्रयणकार्यस्य कृत्रिम मुद्राणाम् शस्त्रास्त्राणाम् मादकौषधानाम् च नियन्त्रणस्य च विषयेषु विमर्शनम् सम्भूतम् आसीत्। नेपाली कांग्रेस केन्द्रीय कार्य सम्पादन समितेः उपवेश अद्य उपविश्यमानो वर्तते। नेपाली कांग्रेस दलस्य कार्यालयस्य कार्यवाहक मुख्य सचिवेन कृष्ण प्रसाद दुलाल इत्यनेन ह्य विज्ञप्तिम् प्रकाश्य केन्द्रीय कार्य सम्पादन समितेः साञ्जालिकोपवेश अद्य प्रातः अष्टवादने उपविशतीति संसूचितम् वर्तते। उपवेशे एतद् विक्रमवर्षीययोः कांग्रेस प्रतिनिधिसभा निर्वाचन परिचालन निर्देशिकायाः कांग्रेस सार्वजनिक कार्यक्रम व्यवस्थापन निर्देशिकायाः च निर्माणम् अथ च केन्द्रीयानुशासन समितेः संघटनम् च क्रियमाणानि सन्तीति विज्ञप्तौ संसूचितम् वर्तते। निर्वाचनायुक्तः डाक्टर जानकी कुमारी तुलाधर गदती लोकतन्त्रस्य सुदृढीकरणस्य निर्वाचनप्रणालीकरणाय निर्वाचन प्रणाली पारदर्शिनी निष्पक्षम् विश्वसनीया च सम्पादनीया। निर्वाचनस्य पर्यवेक्षणाय प्राप्तानुमतीनाम् राष्ट्रिय संस्थानाम् प्रमुखैः प्रतिनिधिभिश्च सह विमर्शनाय ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे निर्वाचनायुक्तः डाक्टर तुलाधर निर्वाचनम् स्वच्छम् स्वतन्त्रम् च सम्पादयितुम् निर्वाचन प्रक्रियायाः पर्यवेक्षणस्य भूमिका महत्वपूर्णा भवतीति उदैरयत्। आयुक्तः डाक्टर तुलाधर पर्यवेक्षणस्य कार्ये संलग्नतायाः अवसरे तटस्थता निष्पक्षता व्यावसायिकम् आचरणम् च अत्यावश्यकानि भवन्तीत्यतः व्यक्तिगत धारणायाः पूर्वाग्रहस्य अनुमानस्य च आधारेण निष्कर्ष प्रकाशनस्य कार्यम् न कृत्वा तथ्येषु आधृत्य पर्यवेक्षणे अवलोकने च केन्द्रिताः भवितुम् सहभागी जनान् अन्वरुणात्। नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा भासते जेनजी युव सन्ततेः आन्दोलने आत पाठम् शिक्षित्वा नेपाली कांग्रेस दलम् परिवर्तितम् वर्तते। नेपाली कांग्रेस दलस्य काष्ठमण्डपस्य षष्ठ निर्वाचन क्षेत्रेण ह्य आयोजिताम् नेतृ कार्यकर्तृमेलाम् सम्बोधयन् सभापति थापा कांग्रेस दलेन विशेष महाधिवेशनम् समायोज्य नूतन नेतृत्वम् प्रचितमस्तीति अवोचत। कार्यक्रमे कांग्रेस दलस्य महामन्त्री प्रदीप पौडेलः नागरिकाणाम् अपेक्षायाः अनुसारेण नीतिम् नेतृत्वम् च परिवर्त्य कांग्रेस दलम् जनतायाः गृहे प्राप्तमस्तीत्यतः दलेन नागरिकाणाम् विश्वासः जेष्यते इति विश्वासम् व्यक्तवान्। वरिष्ठ कलाकारः अभिनेता च सुनील थापा ह्य 68 वर्षाणाम् वयसि दिवंगतो वर्तते। चलचित्र क्षेत्रे राते काइलो नामना प्रचितः थापा ह्य प्रातः स्वास्थ्य सहसा समस्यायाः दर्शनस्य पश्चात् उपचाराय थापाथलीवर्तिनी नर्विक चिकित्सालये नीतः आसीत्। तस्मिन्नेव क्रमे चिकित्सकैः थापा दिवंगतः इति उद्घुष्टः आसीत्। थापा दीर्घकालात् नेपाली चलचित्रेषु भारतीय चलचित्रोद्योगे च सक्रियः आसीत्। अत्रान्तरे प्रधानमन्त्रिणा सुशीला कार्किणा शोक सन्देशम् प्रकाश्य नेपाली चलचित्र क्षेत्रस्य लोकप्रिय अभिनेतुः थापाविदस्य असामयिक निधनस्य सूचनया आत्मना दुःखम् अनुभूतमस्तीति उक्तम् वर्तते। प्रधानमन्त्री कार्की थापाम् प्रति श्रद्धाञ्जलिम् समर्प्य शोकसन्तप्त परिवारजनान् शुभेच्छुकजनान् सम्पूर्ण कलाक्षेत्रम् च प्रति गभीर समवेदना प्रकटितवती वर्तते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणः पशुपति क्षेत्र विकास कोष संचालक परिषदः अध्यक्षस्य च अनिल कुमार सिंहभिदस्य अध्यक्षतायाम् महाशिवरात्रि पर्वणः पूर्व कार्याणाम् कृते एकसप्तत्युत्तरैकशत सदस्यीय मूल समितिः संघटिता वर्तते। इति समाचाराः।